नमस्सर्वेभ्यः अद्य कोविदवर्गस्य सप्तविंशः पाठः जुलै मासस्य षड्विंशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो अस्माभिः गतवर्गे बहुव्रीहिसमासस्य प्रभेदाः अधीताः बहुव्रीहिसमासे पञ्चप्रभेदाः अस्माभिः दृष्टाः समानाधिकरणबहुव्रीहिः व्यधिकरणबहुव्रीहिः नञ् बहुव्रीहिः सह पूर्वपदबहुव्रीहिः उपमानपूर्वपदबहुव्रीहिः इति समानाधिकरणबहुव्रीहौ पदद्वयमपि प्रथमान्तं भवति पीतं क्षीरं येन सह दत्तं धनं यस्मै सह वीराः पुरुषाः यस्मिन् सह इत्यादि यच्छब्दस्य विभक्तिः भिद्यते किन्तु समासे यानि पदानि भागं वहन्ति तेषां प्रथमाविभक्तिरेव भवति सामानाधिकरण्यं च भवति व्यधिकरणबहुव्रीहौ तु पदद्वयं भिन्नभिन्नविभक्तौ भवति सामान्यतः उत्तरपदं सप्तमीविभक्तौ भवति चक्रं पाणौ यस्य सः गदा हस्ते यस्य सः चन्द्रः मौलौ यस्य सः इत्यादि उदाहरणानि नञ् बहुव्रीहिसमासे नञ् इति अव्ययं न शब्दः अन्येन सुबन्तेन सह समासं प्राप्नोति नञ् तत्पुरुषस्य नञ् बहुव्रीहेः च रूपे भेदः न भवति अपि तु अर्थे एव भेदः भवति न पुत्रः अपुत्रः नास्ति पुत्रः यत्र सः यस्य सः अपि अपुत्रः अतः अर्थम् आश्रित्य विग्रहवाक्यं वक्तव्यं भवति सः पूर्वपदबहुव्रीहौ सः इति पूर्वपदं भवति पुत्रेण सह वर्तते पित्रा सह वर्तते इत्यादि तत्र सः इत्यस्य स्थाने स इति आदेशः विकल्पेन भवति अतः कदाचित् सः पुत्रः इति कदाचित् सपुत्रः इति रूपद्वयम् अपि भवति उपमानपूर्वपदबहुव्रीहौ पूर्वपदम् उपमानं भवति अत्रापि उपमानपूर्वपदकर्मधारयस्य उपमानपूर्वपदबहुव्रीहेश्च भेदः तत्रैव अर्थः कस्य अर्थस्य प्राधान्यम् यत्र उत्तरपदस्य प्राधान्यं तत्र कर्मधारयसमासः यत्र अन्यपदार्थस्य प्राधान्यं तत्र बहुव्रीहिसमासः इति ज्ञातव्यम् गजाननम् इव आननं यस्य सः गजाननः इति उदाहरणम् अत्र अर्थमाश्रित्य विग्रहवाक्यं द्वेधा भवति यथा चन्द्रः इव वदनं यस्याः सा चन्द्रवदना साक्षात् चन्द्रः उपमानं चन्द्रः इव वदनम् इति अत्र तु गजः इव आननम् इति नोच्यते गजाननं गजस्य आननम् इव आननं यस्य इति उच्यते उभयथापि वक्तुं शक्यते गजाननम् इव आननम् अथवा गजस्य आननम् इव आननं यस्य विग्रहवाक्ये तथा लेखने दोषः नास्ति वस्तुतः प्रक्रियायां किं भवति गजस्य आननं गजाननं गजाननम् इव आननं यस्य एवमेव हरिणस्य अक्षि हरिणाक्षि हरिणाक्षि इव अक्षि यस्य सः हरिणाक्षः अथवा यस्य सा हरिणाक्षी इति स्टेप्स् इट् इस् आल्वेस् टु स्टेप्स् इन् द फस्ट् स्टेप् वि डु अ तत्पुरुष एण्ड् देन् वि डु अ बहुव्रीहि वेर् एस् द उत्तरपद आफ् द तत्पुरुष गेट्स् लोप आर् डिलीटेड् दट् इस् द एक्चुअल् प्रक्रिया बट् रैटिङ्ग् द विग्रह केन् बि डन् ईदर् वे बिकास् द विग्रहवाक्य इस् जस्ट् टु इण्डिकेट् द मीनिङ्ग् अर्थावबोधनार्थम् एव विग्रहवाक्यम् उच्यते इत्यतः उभयथापि लेखितुं शक्यते इदानीं केचन अभ्यासाः आसन् वस्तुतः इतः परम् अभ्यासानाम् एव प्रामुख्यम्. प्रायेण समासाः अधीताः. वी विल् जस्ट् हेव् अनदर् वन् क्लास् फार् समासस्. वि आर् आल्मोस्ट् रीचिङ्ग् द एण्ड् आफ् समासस्. सो हेन्स् फोर्त् वाट् मेटर्स् मोस्ट् इस् अप्लैयिङ्ग् वाट् यु हेव् लर्न्ड् टु साल्व् समासस्, एस्पेशलि वेन् यु नो यु गेट् अ मिक्स्ड् bunch of samasas. It's not like you already know that, okay, this exercise is fully tatpurusha or fully bahuvrihi. Ya yadyad adhitam sarvam manasi sthapayitva tasya tasya padasya vigrahaha athava samasta padam vaktavyam abhyasena nischayena siddhyati kintu itah param keshuchit vargeshu evam mishra abhyasani abhyasan kurmaha. Gatavarge api ye shlokaah asan तत्र न केवलं बहुव्रीहि समासाः, अन्ये अपि समासाः आसन्. अर्थम् आश्रित्य तेषां विग्रहः वक्तव्यः. अग्रे पश्यामः. प्रथमः अभ्यासः तु समस्तपदं लेखनीयम्. कः समासः इत्यपि वक्तव्यम्. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. प्रथमः प्रश्नः अस्ति, कोदण्डः पाणौ यस्य सः. निर्मला.
नमस्ते.
वदतु.
कोदण्डः पाणौ यस्य सः. कोदण्डपाणि.
कोदण्ड.
कोदण्डपाणि. पाणिः. कोदण्डपाणिः व्याधिकरण
सम्यक्. कोदण्डः पाणौ यस्य सः. कोदण्डपाणिः. तत्र विभक्ति भवेत्. व्यधिकरण बहुव्रीहि.
अस्तु.
द्वितीयम्.
न विद्यन्ते कामाः यस्य सः. अकामः.
सम्यक्. अकामः.
अकामः नै प्रवृत्तये.
नै बहुव्रीहिः. सो न काम इत्यनयोः समासः. न इत्यत्र नकारस्य लोपः भवति, अतः अकामः इति नञ् बहुव्रीहि समासः. उत्तमम्. अग्रिमम्. महादेवन् महोदय. डि महादेवन्. अजातः शत्रुः यस्य सः.
मन्ये. नमस्ते.
वदतु.
अजातः शत्रु यस्य सः. उपमानपूर्वपद बहुव्रीहि. अजातशत्रु.
अजातशत्रुः. सम्यक्. किम् उपमानमत्र?
अजातः. अजातः शत्रु यस्य सः. अजातशत्रु समासपदम्.
समस्तपदं. सम्यक्.
अजात उपमानपूर्वपदम् एव.
कथम् उपमानम्?
अजातः. अजातः शत्रु किल अत्र?
विशेषणम्. अजातः इति विशेषणं, शत्रुः इति विशेष्यम्. अतः समानाधिकरण सामान्य बहु. उपमानं नास्ति अत्र. समानाधिकरण बहुव्रीहिः. अजातः इति शत्रोः विशेषणम्. सो यस्य न जातः अजातः. यस्य शत्रुः एव न जातः. हि हूज़् एनिमी इस् नाट् बोर्न्. युधिष्ठिरस्य अजातशत्रुः नाम आसीत्. अत्र समानाधिकरण बहुव्रीहिः. उपमानं नास्ति. नै बहुव्रीहिः अपि न. केचन अत्र किञ्चित् सन्देहः भवेत्. अत्र नै बहुव्रीहिः नास्ति, यतोहि अत्र न इति न जातः अजातः इत्यत्र नै तत्पुरुषः. अजातः शत्रुः यस्य इत्यत्र तु बहुव्रीहिः एव. समानाधिकरण बहुव्रीहिः. अग्रिमम्.
मित्रैः सह वर्तते.
सुमित्रा
स्त्रीलिङ्ग अस्ति अतः
सुमित्रा अथवा सहमित्रा इति रूपद्वयमपि भवति. मित्रैः सह वर्तते सुमित्रा अथवा सहमित्रा सहपूर्वपद बहुव्रीहिः. उत्तमम्. अग्रिमं महालक्ष्मी भगिनी.
नमस्ते. मीने इव अक्षिणी यस्याः सा मीनाक्षी उपमानपूर्वपद बहुव्रीहिः.
सम्यक्. उपमानपूर्वपद बहुव्रीहिः मीनाक्षी स्त्रीलिङ्गे अस्ति यस्याः सा इति अतः मीनाक्षी. अग्रिमं.
घण्टा इव कर्णौ घण्टकर्णः कर्णिः.
न न कर्णः
घण्टकर्णः उपमानपूर्वपद बहुव्रीहिः.
घण्टाकर्णः उपमानपूर्वपद बहुव्रीहिः. सम्यक्. तस्य कर्णौ कश्चित् असुरः आसीत्. घण्टाकर्ण वास् द नेम् आफ् अन् असुर. हिस् इयर्स् वेर् अपरेण्ट्लि शेप्ड् लैक् बेल्स्. घण्टा घण्टा इव कर्णौ यस्य सः. अग्रिमं राधा भगिनी.
पासः हस्ते यस्याः सा पासहस्ता. पासहस्ता
कः समासः?
व्यधिकरणसमासः.
व्यधिकरण बहुव्रीहिः पाशहस्ता. सम्यक्. अग्रिमं.
न विद्यते अपेक्षा यस्य सः अनपेक्षः.
अनपेक्षः
बहुव्रीहिः.
सम्यक्. अनपेक्षशुचिर्दक्षः इति भगवद्गीतायाम् अस्ति. न अपेक्षा. अपेक्षा इत्यत्र अजादिः अतः अन् इति भवति. अनपेक्षा ह्रस्वः अनपेक्षः. उत्तमम्. अग्रिमं राव् महोदय. You have to unmute yourself. Neela Bagini. You have to click once to unmute yourself on the microphone.
सपत्नी सह बहुव्रीहिः.
रूपं किं?
सह बहुव्रीहिः.
समस्तपदं किम्? समस्तपदं किं?
सपत्नी वा सपत्नी.
सपत्नी कः? पत्नी इति. सपत्नी कः अथवा सहपत्नी कः? उत्तमं. न चिन्ता नास्ति. अग्रिमं. सिंहमुखम् इव मुखं यस्य सः. अग्रिमं वदतु. सिंहमुखम् इव मुखं यस्य सः.
सिंहमुखम् इव मुखं सिंहमुखं.
सिंहमुखः सः पुल्लिङ्गे अस्ति. सिंहमुखः. सिंहमुखः यतोहि यस्य सः इति
भवति. सिंहमुखी स्त्रीलिङ्गे भवति.
स्त्रीलिङ्गे भवति. यस्याः सा अस्ति चेत् सिंहमुखी इति भवति. सम्यक्. सिंहमुखः इति उपमानपूर्वपद बहुव्रीहिः. सम्यक्. अग्रिमम् अस्ति विग्रहवाक्यं वक्तव्यं गोपुच्छः कश्चित् वानरः वानरस्य गोपुच्छः इति नाम भवति उमादेवी भगिनि
नमस्ते
नमस्ते
हलो नमस्ते
श्रूयते
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 गोः पुच्छः यस्य सः
गोः पुच्छः वानरस्य भवति
गोः
कथं भवति वानरस्य पुच्छं कः अर्थः गोपुच्छः इत्युक्ते वदतु चिन्ता नास्ति आङ्ग्लभाषया वदतु गोपुच्छः इत्युक्ते वाट् इस् द मीनिङ्ग् आफ् द वर्ड् गोपुच्छ a monkey who has
cow tail.
A monkey cannot have a cow's tail. It can have a tail like a cow's tail, right? This monkey, it has a tail which is like, which resembles the tail of the cow.
Yeah.
Katham vigraha.
ओके गोपुच्छः युवपुच्छः यस्य सः
उत्तमं गोपुच्छं युवपुच्छं यस्य सः ही हूस् टेल् इस् लैक् द टेल् आफ् अ कौ ओके गोः पुच्छं युवपुच्छं यस्य सः गोपुच्छः उत्तमम् अग्रिमम्
शाङ्गं पाणौ यस्य सः
सम्यक् शाङ्गं पाणौ यस्य सः
यस्य
शाङ्गपाणि
व्यधिकरणसमासः बहुव्रीहिसमासः
उत्तमं व्यधिकरणबहुव्रीहिः शाङ्गम् इति महाविष्णोः धनुषः नाम हिस् बो इस् काल्ड् शार्ङ्ग अतः शाङ्गं पाणौ यस्य सः शार्ङ्गपाणिः अग्रिमं राव् महोदय
श्रूयते वा
श्रूयते
गुड् ईविङ्ग् अकर्मकः न कर्म यस्य सः अकर्मकः
सम्यक्
नै बहुव्रीहि
उत्तमं न कर्म यस्य सः अकर्मकः नञ् बहुव्रीहि समासः अत्र अकर्मन् न कर्मन् अकर्मन् देर् इस् अ क प्रत्यय कर्मन् इत्यत्र नकारस्य लोपः भवति अकर्मक उत्तमम् अग्रिमम्
सः कर्म यस्य सः सकर्मकः
सः इत्यस्य योगे का विभक्तिः
सः अस्ति सः सः
विषये रामेण सह पुत्रेण सह
तृतीया
सम्यक् सो तृतीया आफ् कर्मन् इस्
सकर्मन् सकर्मेण
कर्मणा
यस्य सः
कर्मणा सह वर्तते इति सकर्मकः सो सः पूर्वपदबहुव्रीहौ तृतीयान्तेन विग्रहः वक्तव्यः बिकास् वित् सः वि गेट् तृतीया सो कर्मणा सह वर्तते अथवा सः कर्मणा वर्तते इति सकर्मकः So, what we call as sakarmaka and akarmaka dhatus. So, sakarmakaha ityatra karmana saha vartate. Saha sakarmakaha. Yasya karma nasti saha akarmakaha. अत्र कश्चित् प्रश्नः, अत्र ईकारान्तम् ऊकारान्तम् ऋकारान्तम् वा नास्ति, किमर्थम् क इति. बहुव्रीहिसमासे सर्वेषु समस्तपदेषु क इत्यस्य योजनम् कर्तुम् शक्यते. क केन् बि आप्शनली एडेड् टु आल् बहुव्रीहि कम्पौण्ड्स्. पीताम्बरकः, वीरपुरुषकः, पीतक्षीरकः, सर्वत्रापि क प्रत्ययः भवितुम् अर्हति. ओके, सो द रूल् इट् सेल्फ् सेस् दट् प्रत्यय, इट् इस् अ प्रत्यय काल्ड् क, इट् केन् बि एडेड् टु आल् बहुव्रीहि कम्पौण्ड्स्, बट् देर् आर् सम् टु विच् वी हेव् टु एड् इट् कम्पल्सरिलि. सो इन् से सपत्नीकः यू केनाट् not add it, whereas in some cases you can add it or not. It is either optional or compulsory. So I had only mentioned the compulsory ones. Yatra ikaranta strilingam bhavati athava ukaranta strilingam bhavati rikarantam va bhavati tatra nityameva kapratyaya bhavati. Atra prayoge kapratyaya bhavati akarmaka sakarmaka iti. अकर्मा सकर्मा इति वक्तुं शक्यते. अकर्मन् इति नकारान्तं प्रातिपदिकं, तस्य प्रथमाविभक्तौ एकवचने अकर्मा सकर्मा इत्यपि भवति. यु केन् आल्सो हाव् इट् विथौट् द कप् प्रत्यय, किन्तु कप् प्रत्ययेन सह प्रयोगः एव प्रसिद्धः. सो अग्रिमं रामानुजं महोदय.
नमस्ते. महानुभावः महान् अनुभावः यस्य सः.
सम्यक्,
समानाधिकरण
उत्तमं. महान् अनुभावः, अनुभावः महिमा इत्यर्थः. सो यस्य, हूज़ सत्व इस् वेरि है, हि इस् काल्ड् महानुभाव. सो अनुभावः महिमा इत्यर्थः. महान् अनुभावः यस्य सः महानुभावः. अग्रिमम्.
सूर्यचन्द्रग्निलोचनः. सूर्यचन्द्रग्निलोचनम् इव लोचनम् यस्य सः.
सः अर्थः वा, कः अर्थः? वाट् डु वि मीन् वेन् वि से शिवः सूर्यचन्द्रग्निलोचनः?
हिस् लोचन इस् दि ऐस् or the eyes like the Surya and Chandra, I couldn't make it.
Antatu, I mean, yada atra bhagavatah vishaye uchyate, he has three eyes. So one eye is Surya, one is Chandra, and the other is Agni.
Okay, okay. So, Surya, Chandra, Agni, so that is the visheshan, samanadikarna.
आदौ तेषां द्वन्द्वः, सूर्यश्च
चन्द्रश्च अग्निश्च लोचनः, लोचनं यस्य लोचनं, लोचनं यस्य सः,
यस्य सः
समानधिकरण.
सत्यं. सो आदौ द्वन्द्वः, सूर्यश्च चन्द्रश्च अग्निः च सूर्यचन्द्राग्नयः, इतरेतर द्वन्द्वसमासः. सूर्यचन्द्राग्नयः लोचनानि त्रीणि सन्ति, अतः लोचनानि यस्य सः इति समानाधिकरण बहुव्रीहिः. सो सूर्यचन्द्राग्निलोचनः मीन्स् ही हू हेस् द सन्, द मून् एण्ड् द फयर् एज् हिस् ऐस्. अत्र उपमानत्वं न विवक्षितम्. Okay, you can also say Surya Chandragnayah Iva Lochanani Yasya Saha. You can say he whose eyes are like Surya Chandra Agni. Kintu yada Shivasya Surya Chandragli Lochanah iti uchyate, tatra vivakshatu they themselves are the eyes. Ataha vivaksham ashritya samanadhikarana bahuvrihihi api vaktum shakyate. उपमानपूर्वपद बहुव्रीहिः अपि वक्तुं शक्येत. ओके, सो डिपेण्डिङ्ग् आन् योर् विवक्ष, बट् दिस् इस् देर्. सूर्यश्च चन्द्रश्च अग्निश्च सूर्यचन्द्राग्नयः इति, अग्निः अग्नी अग्नयः इतरेतरद्वन्द्वः अनन्तरं बहुव्रीहिः. अग्रिमं महादेवन् महोदय.
कुसुम शरकरः प्रथमं कुसुमश्च शरश्च द्वन्द्वसमासः.
द्वन्द्वः वा? कुसुमं भिन्नं, शरः भिन्नं वा?
अन्वतस्य शरः कुसुमेव.
कुसुममेव.
कुसुमशरः करौ यस्य सः कुसुमशरकरः. कुसुमशरः
उक्तं भवता.
कुसुमशरः
कुसुमशरः इति कर्मधारयः, अथवा कुसुमस्य शरः कुसुमशरः षष्ठी तत्पुरुषः. ही कैन ईदर से ही हैज एन एरो ऑफ फ्लावर्स और ही हैज एन एरो विच इज नथिंग बट द फ्लावर. उभयमपि शक्यते. अतः कुसुमस्य शरः अथवा कुसुमं एव शरः. फ्लावर इटसेल्फ इज हिज एरो. Or he has an arrow which is made of flowers. Kusumasharaha. Kusumasharaha kare yasya saha kusumashara karaha. Yadhikarana bahuvrihi. Agrimam.
Dhanu. Dhanu rishu panihi. Dhanushcha ishushcha. Dhanu rishu. धनुरिषु पाणौ यस्यतः धनुरिषु पाणिः.
सम्यक्. धनुः च इषुः च. इषुः इत्युक्ते बाणः. धनुः बाणः च. सो धनुरिषु इतरेतरद्वन्द्वः. गुरुः गुरू गुरवः एवम् इषुः इषू. द्वयमस्ति अतः द्विवचनम् द्वन्द्वसमासः. धनुरिषु पाणौ यस्य सः. यस्य हस्ते धनुः बाणश्च अस्ति. सः धनुरिषु पाणिः. व्यधिकरण बहुव्रीहिः. उत्तमम्. प्रिया भगिनी.
सिन्दूरारुण विग्रह सिन्दूर इव अरुणविग्रहः यस्याः सा. उपमानपूर्वपद.
सिन्दूरः इव किं भवति? द्वयं द्वयं सर्वदा द्वयं. अतः सिन्दूरम् इव
अरुणविग्रहः यस्याः अरुण.
अरुणः. सिन्दूरम् इव अरुणः. सिन्दूरारुणः कः समासः?
उपमान पूर्वपद.
कर्मधारयः. सम्यक्. सिन्दूरम् इव अरुणः. रेड् लैक् सिन्दूर. सिन्दूरारुणः इति उपमानपूर्वपदकर्मधारयः. इदानीं
सिन्दूरारुण.
सिन्दूरारुणः.
सिन्दूरारुणः विग्रहः यस्याः सा.
सम्यक्. सिन्दूरारुणः विग्रहः यस्याः सा. सिन्दूरारुणविग्रह उपमानाधिकरणं. न अत्र समानाधिकरणं, तत्रैव उपमानं समाप्तम्. सो रेड् लैक् सिन्दूर, दट् इस् द उपमान कर्मधारये. नौ शी हूस् बाडि, विग्रहः इत्युक्ते शरीरं, सिन्दूरारुणः इस् रेड् लैक् वर्मिलियन्. यु हव् आलरेडि डन् दट्. अतः अत्र समानाधिकरण बहुव्रीहि. सम्यक्. एतत्तु अग्रे करिष्यामः. बहवः समासाः यदा एकस्मिन्नेव पदे भवन्ति तदा कथं तस्य विग्रहः इति अग्रे पुनः अग्रिमवर्गे अभ्यासं कुर्मः. द जनरल रूल इज यू टेक 2/2 अंडरस्टैंड द मीनिंग. इट सेज विग्रह, विग्रह इज बॉडी, अरुण इज द अरुण वर्ण, नॉट एग्जैक्टली रेड बट दट रेडिश कलर. Sindoora is a red lead. It is a mineral which is of that color. Okay, so you have three words. Generally, when there is a long one, you have to split the components and understand what is the meaning. Sindoora is red lead. That is the mineral called Sindoora. Aruna is red and Vigraha is body. Okay, what is the meaning now? Body is red. Arunaha Vigraha. Okay, so that is there. Now, Arunaha, red like Sindoora. Okay. So, we do that red like Sindoora first. Sindooram iva Arunaha, Sindoora Arunaha. Sindoora Arunaha Vigraha Yasyahasa, Sindoora Aruna Vigraha. Iti Agre Punaha Asya Abhyasam Kurmaha Antimam Priya Bhagini Bhavati Eva Vadat. Saputra Pautraha.
Saputra Pautraha. पुत्र पौत्रैः सह वर्तते इति सह पूर्वपद बहुव्रीः.
सम्यक्. पुत्र पौत्राः इत्यत्र
पुत्राश्च पौत्राश्च.
उत्तमम्. पुत्राः च पौत्राः च पुत्र पौत्राः. पुत्र पौत्रैः सह वर्तते इति सपुत्र पौत्रः. उत्तमम्. अत्र आदौ द्वन्द्वसमासः, तत्र इतरेतरद्वन्द्वः अपि वक्तुं शक्यते, समाहारद्वन्द्वः अपि वक्तुं शक्यते. सो पुत्राः च पौत्राः च पुत्रपौत्राः इति इतरेतरद्वन्द्वः. पुत्राः च पौत्राः च तेषां समाहारः. इफ् यु आर् रेफरिङ्ग् टु देम् एज़् अ ग्रूप् आफ् सन्स् एण्ड् ग्राण्ड्सन्स्, सो तदा पुत्रपौत्रम् इति समाहारद्वन्द्वः. उभयं युज्यते, बोथ् आफ् देम् आर् वेलिड्. अग्रे पुत्रपौत्रैः सह वर्तते. इफ् यु डु इतरेतरद्वन्द्व, पुत्रपौत्रैः सह वर्तते, अथवा समाहारद्वन्द्वः क्रियते चेत् पुत्रपौत्रेण सह वर्तते. फैनल् मीनिङ्ग् इस् द सेम्. ही इस् वित् सन्स् एण्ड् ग्राण्ड् सन्स्. सो सन्स् एण्ड् ग्राण्ड् सन्स् यु केन् ईदर् टेक् देम् इण्डिविजुवलि आर् टेक् देम् एस् अ ग्रूप् इति अभ्यासद्वयं समाप्तम्. अग्रे श्लोकत्रयमासीत्. तत्र ये यानि समस्तपदानि तेषां विग्रहः वक्तव्यः इति. सो एनिबडि हु वाण्ट्स् टु ट्रै प्लीज़् रेज़् युवर् हेण्ड्स्. केनापि प्रयत्नः कृतः? प्रथमः श्लोकः एषः. मातामहमहाशैलं महस्तदपितामहम् कारणं जगतां वन्दे कण्ठादुपरि वारणम्. कोऽपि नास्ति वा? रमा भगिनी, मेबी यू शुड टेल यू हैड डन दैट राइट.
आई विल टेल वन सेकंड. मातामहमहाशैलम्. मातामहमहाशैलः यस्य सः तं गणेशम्. अधिकरणं बहुव्रीहि.
समानाधिकरणम्.
ओके, समानाधिकरणम्. अण्ड् महः प्लस् तत् प्लस् अपि अपितामहम्. अपितामहं न विद्यते. पितामहं यस्य सः तं गणेशं नै बहुव्रीहि.
सम्यक्. सो ऑलवेज whenever you get a shloka, so irrespective of what you are expected to do, first you have to understand. तदर्थम् अस्माकं सामान्यः यः क्रमः स एव अनुसरणीयः. आदौ किं करणीयं? पदच्छेदः. मातामह महाशैलं, महः तत् अपितामहम्. कारणं जगतां वन्दे कण्ठात् उपरि वारणम् इति श्लोकः. श्लोकस्य सामान्यार्थः ज्ञातव्यः, तदा एव वयं समासं वक्तुं शक्नुमः. अर्थज्ञानं विना समासः वक्तुं न शक्यते. कः अर्थः अत्र? अन्वयः एवं: मातामहमहाशैलम् अपितामहं जगतां कारणं कण्ठादुपरि वारणं तत् महः वन्दे. वन्दे अहं नमस्करोमि. किं नमस्करोमि? महः. महः इत्युक्ते तेजः. सो लस्टर्, ही डजन्ट्, द कवि डज नाट् स्पेसिफै हू इट् इस्, ही जस्ट् सेज् इट् इस् अ तेजस् दट् ही इस् बोयिङ्ग् डौन् टु, एण्ड् ही डिस्क्रैब्स् इट् विच् मेक्स् इट् वेरि आब्वियस् वाट् इट् इस्. ओके, सो कीदृशं महः? कण्ठादुपरि वारणम्. कण्ठादुपरि वारणः, वारणः गजः, गजवदनः, गणेशरूपं तेजः नमस्करोमि. जगतां कारणं, प्रपञ्चस्य कारणभूतं गजाननरूपं तेजः अहं नमामि इति अर्थः. तत्र विशेषणद्वयमस्ति: मातामहमहाशैलम् अपितामहं. समासः तत्र अस्ति. मातामहमहाशैलं, भगिन्या उक्तं, कः अर्थः? महान् शैलः, महाशैलः. तत्र विशेषणपूर्वपदकर्मधारयः अस्ति. महाशैलः इत्युक्ते हिमालयः. द ग्रेट् मौण्टेन् इस् हिमालय. मातामहः महाशैलः यस्य सः. यस्य मातामहः महाशैलः, समानाधिकरणबहुव्रीहिः. कथं? गणेशस्य माता पार्वती, पार्वत्याः पिता हिमालयः. सो मातामहः इस् मेटर्नल् ग्राण्ड् फादर्. सो मेटर्नल् ग्राण्ड् फादर् फार् गणेश इस् हिमालय. मातामहमहाशैलं गणेशम् इत्यर्थः. पुनः कीदृशः सः? अपितामहः. न विद्यते पितामहः यस्य सः अपितामहः. नञ् बहुव्रीहिः. किमर्थम्? गणेशस्य पिता अस्ति शिवः, शिवस्य पिता नास्ति. शिवः स्वयंभूः. शिव डज् नाट् हाव् एन् ओरिजिन्, ही डज् नाट् हाव् अ फादर्. अतः अपितामहः. मातामहमहाशैलम् अपितामहं गणेशं नमस्करोमि इति श्लोकस्य अर्थः. मातामहमहाशैलम् इत्यत्र समानाधिकरणबहुव्रीहिः, अपितामहम् इत्यत्र नञ् बहुव्रीहिः. उभयत्र तम् इति योजनीयं, द्वितीया विभक्तिः. अग्रिमः श्लोकः अत्यन्तं प्रसिद्धः. श्लोकः अत्यन्तं प्रसिद्धः. प्रायः सर्वाणि अपि पदानि समस्तपदानि. कोऽपि वक्तुमिच्छति वा? Ramanujam,
I'm going to give a try.
Shantakaram.
Shantam karoti iti tam.
Akara. Shanta akara.
Oh, shanta akara. So shanta akara. Akara is.
Akara is form. He who has a very...
Oh, is in the form of Shanta.
Present form.
Oh, okay, okay. So then Shanta Akara, Shanta Akara Yasya Saha. That is Samanadikarana Bhagavadi Samasaha.
Shantaha Akaraha Yasya Saha. Shanta Akaraha Tam. समानाधिकरण बहुव्रीहिः.
भुजग शयनम्. भुजगे शयनम् यस्य सः.
शयनम् इस् अ बेड्.
सो हिस् बेड् इस् आन् द सर्पेण्ट्.
हिस् बेड् इस् द सर्पेण्ट्.
हिस् बेड् इस् द सर्पेण्ट्. ओके. भुजगं शयनं यस्य सः.
भुजगः शयनं यस्य सः भुजगशयनः तम् तत्रापि समानाधिकरण बहुव्रीहिः.
पद्मनाभं पद्मं नाभं यस्य सः
नाभौ इन् हिज नेवल लोटस इन् हिज नेवल.
Yes, yes, yes. Okay. Padmam nabau yasya saha. That is the vyadhikarana bahuvrihi.
Samyak. Padmam nabau yasya saha. Padma nabaha. Vyadhikarana bahuvrihi.
Suresham. Suranam ishaha tam. That is sashti tatpurushaha.
Samyak. Suranam ishaha sureshaha tam. Sashti tatpurushaha. Uttamam. Dhanyavadaha. अग्रिमं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं. उमादेवी भगिनी उमादेवी भगिनी यू वांट टू ट्राई.
सारी म्यूट. ओके. विश्वस्य सॉरी सॉरी विश्वस्य आधारः यस्य सः तम्
न न विश्वस्य आधारः ही हिमसेल्फ इज द आधार द फाउंडेशन सपोर्ट फॉर द वर्ल्ड. अतः विश्वस्य आधारः विश्वाधारः तम् षष्ठी तत्पुरुषः.
गगन सदृशम आई डिडंट गेट प्रॉपरली बट आई हैव ट्राइड. गगन सदृशम टू गगन से सदृशम वन आई हैव ट्राइड. गगन एव सदृशः आई हैव ट्राइड.
गगनेन सदृशम सो तृतीय तत्पुरुष गगनेन सदृशः सिमिलर टू द स्काई. ओके सो इन तृतीय तत्पुरुष द सम सदृश तुल्य एटसेट्रा वी हैव तृतीय. सो गगनेन सदृशः गगन सदृशः तम तृतीया तत्पुरुषः.
मेघ मेघवर्णं मेघस्य वर्णं अथवा मेघः इव वर्णम्
मेघस्य वर्णः इव वर्णः. ही हूस् कलर इज लाइक द कलर ऑफ द क्लाउड किल. अतः मेघस्य वर्णः इव वर्णः यस्य सः यस्य वर्णः मेघस्य वर्णः इव तम् उपमान पूर्वपद बहुव्रीहिः.
शुभांगं केन आई ट्राई
या मां वदतु.
शुभम अंगं यस्य सः तम्
सम्यक्. शुभम अंगं यस्य और शुभानि अंगानि यस्य उभयम् शुद्धम् बोथ ऑफ देम आर करेक्ट. So he whose organs are auspicious. Shubhani angani yasya saha or shubham angam yasya saha shubhangaha tam samanadhi karana bahuvrihihi. Samyak. Padma bhagini. Shamyata.
Lakshmiyaha kantam. Kantaha Lakshmiyaha kantaha plus tam.
लक्ष्म्याः कान्तः लक्ष्मीकान्तः तम्
कमलः इव नयनं यस्य सः कमलनयनः.
सम्यक्. सिन्स् इट् इस् टु यु केन् यूस् द्विवचन कमले इव नयने यस्य सः कमलनयनः तम् उपमानपूर्वपद बहुव्रीहिः.
योगिनि निक्रान्
योगि हृद्यानगम्यम् देर् इस् आल्सो ए पाठान्तर योगिभिः ध्यानगम्यम् दट् इस् आल्सो ओके.
योग्याः हृदये योग्याः
योगिनां हृदयम्
योगिनां हृदयम् योगि हृद्यम् ऐ केनाट् गेट् दट् सेकेण्ड्
ध्यानगम्यम्
तेषां ध्यानं
What is dhyana gamya? He who can be reached by dhyana.
Meditation, yes.
First do dhyana gamya.
Dhyane gamyam. Dhyanena gamyaha.
Dhyanena gamyaha, dhyana gamyaha. So he who can be reached through meditation by the yogi hridayas.
Yogi hridayena dhyana gamyaha.
Dhyana gamyaha sayeva. So yoginam hridayam athava hridayani yogi hridayani, the hearts of yogins is shashti tat purusha. Dhyanena gamyaha dhyana gamyaha is tritiya tat purusha. Yogi hridbhihi dhyana gamyaha. There is a special this here. The hridaya is replaced by hrit. Okay. So it is a special vyakarana rule. So yogi hridbhihi dhyana gamyaha iti tritiya tat purusha. If it is yogi bhir dhyana gamyam, it is even easier because there is only one samasa there. Dhyanena gamyaha dhyana gamyaha iti tritiya tat purusha. Okay. So the last line, Vande Vishnum Bhavabhayaharam Sarvalokaika Natham. Mahadevan Mohanaya.
Vande Vishnum Bhavabhayaharam Sarvalokaika Natham. Bhavabhayaharam Bhavat Bhayaha Bhavabhayaha.
Bhayam.
Bhavat Bhayam Bhavabhayam. Bhayam haratiti bhavabhaya haraha tam.
Bhavabhayasya, there is a slide, this one. Yuktam arthaha sayeva bhavat bhayam bhavabhayam iti panchami tatpurushaha bhavabhayasya haraha. Okay, we don't do upapada samasa here because if we do upapada, we get hara. Like kumbhakaraha, sutradharaha. It should have been bhavabhaya haraha. So for haraha, wherever you get haraha, dharaha, etc., we say bhavabhayasya haraha. Gangayaha dharaha, gangadharaha. Bhavabhayasya haraha, bhavabhaya haraha. Agrimam.
Sarva lokaika natham. Sarvalokanam ekanathaha sarvalokaikanathaha. Then I have to click sarvalokaha as sarve lokaha sarvalokaha. Ekanathaha. Ekaha eva nathaha sarvadvaraya.
Ekaha nathaha samyak.
Ekaha nathaha. Sarvalokanam ekanathaha sarvalokaikanathaha
samyak. Sarve lokaha, sarva lokaha, karmadharayaha. Ekaha nathaha, the only Lord. Eka nathaha, karmadharayaha. Sarva lokanam, eka nathaha. Iti shashti tatpurushaha. Okay. So, such samasas where there are multiple samasas, we will again come back to them. Okay. So, punaha agrima varge kurmaha. Tritiyaha api shlokaha asti. Kintu, we are running out of time. Ataha aham adhyatana patham pashyamaha. Agre uttarani aham dasyami. Ante punaha prayaha agrima varge tesham charchang kurmaha. Okay, so since adhyatana patham kinchidva pashyamaha. Samasaha chaturvidhaha. Santi iti jnatavantaha avyayi bhavaha tatpurushaha bahuvrihihi dvandvaha iti tatra tatpurusha samasasya prabhedaha samanya tatpurushaha karmadharayaha dviguhu nanya prabhritayascha drishtaha bahuvrihi samase pancha prabhedaha adhitaha dvandva samase itaretaraha samaharaha iti prabhedadvayam drishtam. Idanim antimaha samasa prabhedaha avyayi bhava samasaha. Avyayi bhava samasasya vishaye kinchit वयं जानीमः पूर्णं न अव्ययीभावसमासः रिक्वायर्स् अ बिट् मोर् यु नो द सूत्र नालेज् टु अण्डर्स्टाण्ड् फुल्लि बट् वि विल् अण्डर्स्टाण्ड् सम् बेसिक् कान्सेप्ट्स् अबौट् अव्ययीभावसमासः ओके कः अव्ययीभावसमासः सामान्यतः वक्तव्यं चेत् अव्ययं पूर्वपदं भवति सुबन्तम् उत्तरपदं भवति सो द यूजुवल् नार्मल् स्ट्रक्चर् आफ् अव्ययीभाव इस् एन् अव्यय कम्बैनिङ्ग् वित् अ सुबन्त कानिचन उदाहरणानि पश्यामः कृष्णस्य समीपम् उपकृष्णम् उपकृष्णम् इति समस्तपदम् उप इति अव्ययम् कृष्ण इति सुबन्तम् अधिहरि अधि इति अव्ययम् हरि इति सुबन्तम् कः अर्थः हरौ इन् हरि इत्यर्थः जनानाम् अभावः एब्सेन्स् आफ् पीपल् निर्जनम् तत्र निर् इति अव्ययम् पूर्वपदम् जन इति सुबन्तम् जनानाम् इति सुबन्तमस्ति तत् उत्तरपदं भवति एवं च अव्ययं सुबन्तेन सह समासं प्राप्नोति सः समासः अव्ययीभावसमासः इति उच्यते अन्यदपि उदाहरणमस्ति शक्तिम् अनतिक्रम्य यथाशक्ति सो विथौट् एक्सीडिङ्ग् द केपासिटि सो एज़् मच् एस् पासिबल् यथाशक्ति करोमि इत्युक्ते I am not crossing my limits. I am not working too hard. Within my limits, I will do. Yatha shakti. Tatra yatha iti avyayam. Shakti shaktim iti subantam bhavati. Okay. Avyayi bhavasya vishaye kechana samanyam shaha. Kim purvapadam samanyataha avyayam bhavati. Kidrasham avyayam iti chet. उपसर्गाः सन्ति उपसर्गाणां विषये वयं गतिसमासे अपि ज्ञातवन्तः प्र परा अपसम् अनु अव निस् निर् दुस् दुर् इत्यादि द्वाविंशतिः उपसर्गाः सन्ति प्रादयः सो मोस्ट् आफ् देम् केन् टेक् पार्ट् एस् द पूर्वपद इन् अव्ययीभावसमास आल्सो अदर् अव्ययस् यथा इति सः यावत् इत्यादीनि अव्ययानि ओके सो विच् स्पेसिफिक् अव्ययस् इट् डिपेण्ड्स् आन् द सूत्र सूत्रम् आश्रित्य अन्यानि अपि अव्ययानि भवन्ति सामान्यतः एतानि अव्ययानि सो मोस्ट् पाप्युलर्ली अदर् देन् द उपसर्गस् यु आल्सो सी दीस् यथा इति सः यावत् इत्यादि पूर्वपदानि भवन्ति सर्वदा अव्ययम् इति न कदाचित् अनव्ययम् अपि पूर्वपदं भवति मध्ये समुद्रं पारे समुद्रम् इत्यादि उदाहरणानि सन्ति त्रिमुनि द्विमुनि सप्तगङ्गम् इत्यादि एवं पारशब्दः मध्यशब्दः सङ्ख्यावाचकशब्दाः अपि भवन्ति रेर्लि ओके दे आर् वेरि रेर् So in 95% of avyayi bhava samasas, the purva pada is an avyaya. Why we call it avyayi bhava is samasta padam sarvada avyayam bhavati. Anavyayam avyayam bhavati. Ataha avyayi bhava. That which was not an avyaya, that is a normal subanta. So after it undergoes samasa, it becomes an avyaya. अव्ययीभावसमासे समस्तपदम् अव्ययम् भवति अत एव अव्ययीभावः इति नाम दत्तमस्ति पूर्वपदम् सामान्यतः अव्ययम् भवति समस्तपदम् तु सर्वदा अव्ययम् भवति अपरः विशेषः अस्ति अव्ययीभावसमासे अव्ययीभावसमासे पूर्वपदार्थस्य प्राधान्यं भवति पूर्वपदार्थस्य प्राधान्यम् इदमेव लक्षणं भवति द प्रि previous one is just a characteristic. That avyayi bhava samasa, you can identify it by seeing that the samasta pada is an avyaya. Also, if the purva pada happens to be an avyaya, but it does not mean that everywhere you see an avyaya in the purva pada, it is not avyayi bhava. Yatra yatra purva pade avyayam bhavati tat sarvam api avyayi bhavah na. Okay. So you cannot identify avyayi bhava samasa saying purva pada is avyaya. That is not an identifying characteristic. You can identify by looking at the samasta pada. Samasta padam avyayam bhavati apicha purva padarthasya pradhanyam bhavati saha avyayi bhava samasah. Even in other samasas, for example, we saw the pradi tat purusha or the nai tat purusha, nai vaho vrihi, tatra sarvatrapi purva padam avyayameva. Kintu tat sarvam api avyayi bhavaha na. Kasya pradhanyam avyayi bhava samase purva padarthasya pradhanyam bhavati. Pradhanyam namakim asmabhihi drishtam kriyaya saha anvayam prapnoti. उदाहरणं पश्यामः कृष्णस्य समीपे तिष्ठति इत्यर्थे उपकृष्णं तिष्ठति इति समासः अत्र कुत्र तिष्ठति इति प्रश्नं पृच्छामः चेत् समीपे तिष्ठति समीपस्य क्रियया अन्वयः समीप इति अर्थः उप इति अव्ययेन बोध्यते सो पूर्वपदार्थः पूर्वपदस्य अर्थः समीपे इति तस्य प्राधान्यं भवति अव्ययी भाव समासे. यूजुअली दिस इज अ बिट मोर डिफिकल्ट टू अंडरस्टैंड कंपेयर टू तत्पुरुष बिकॉज इन तत्पुरुष यू कैन अंडरस्टैंड बोथ पदार्थस इजीली. अव्ययी भाव समासे अव्ययस्य अर्थः अब्स्ट्रैक्ट भवति. इट इज नॉट अ मटेरियल थिंग. इट इज यूजुअली अब्स्ट्रैक्ट. ओके. But once you think over, you will still understand that it is the meaning of the purva pada which is prominent, which is pradhana in avyayi bhava samasa. Anuramam bharatah jatah. Kahartah ramasya paschat bharatah jatah. Bharata was born after Rama. Kada jatah paschat jatah. So jata, the kriya is directly related to the meaning of the avyaya. The meaning of the avyaya here is after ityartha. Ataha purva padarthasya pradhanyam bhavati avyayi bhava samase. Aparaha amshaha avyayi bhavaha nitya samasaha. Nitya samasaha ityukte kim? अत्रैव इदानीमेव दृष्टं स्यात् विग्रहः समासः समानं न भवति. इफ् यु लुक् इफ् यु हव् सीन् आल् द विग्रहस् विच् वी हव् सीन् सो फार् सो सीतापतिः सीतायाः पतिः रामलक्ष्मणौ रामः च लक्ष्मणः च पीताम्बरः पीतम् अम्बरं यस्य. वी आर् यूसिङ्ग् only the words. I mean, we may add a few additional words, but both words of the samasa are also found in the vigraha, whereas in avyayi bhava that is not the case, right? So vigrahe upa adhi nir yatha ityadi na drishyate. Tatra kim karanam iti chet saha nitya samasaha ityukte समास घटकैः पदैः विग्रहः वक्तुं न शक्यः. यू केनाट् गिव् अ विग्रह यूजिङ्ग् द सेम् वर्ड्स् एस् द समास. उपकृष्णः उपकृष्णम् देर् इस् अ टैपो सोरि उपकृष्णम् इत्युक्ते कृष्णस्य उप इति वक्तुं न शक्यते. एवमेव अनुविष्णु इत्युक्ते विष्णोः अनु इति वक्तुं न शक्यते. वै उप अनु इत्यादीनां स्वातन्त्र्येण प्रयोगः नास्ति. दीस् वर्ड्स् आर् नाट् यूस्ड् इण्डिपेण्डेण्ट्लि इन् अ सेण्टेन्स्. यु ओन्ली यूस् इट् यु यूस् द उपसर्गस् वित् धातुस् आर् यु केन् यूस् इट् लैक् दिस् but not independently by themselves. Okay. Saha svabhavaha tesham. Ataha arthabodhaha api na bhavati. Just when you say Krishnasya upa, you don't even understand what it is, and it cannot be made. This is not a valid sentence. Ataha vayam kim kurmaha artham bodhayitum tatra krishnasya samipam iti vigraham vadamaha. So this is because avyayi bhava is a nitya samasa. You cannot split the words and make them separate words. When you use it as a samasa, it is upakrishnaha. When you split it, the meaning of upa is given by samipa. Krishnasya samipam upakrishnam. Vishnoho paschat anu Vishnu. Paschat ityarthaha anu iti avyayena bodhyate samase. So it can convey that meaning only when it is part of a samasa. Okay. So such samasas are called nitya samasas. Upapara samasaha api nitya samasaha. Kumbhasya karaha iti vaktum na shakyate. Because kara does not stand independently from kumbha. Kumbham karoti iti kumbhakaraha. Atayeva tingantena vigraha uchyate. Etadrishaha samasaha nitya samasaha iti uchyante. Avyayi bhava samasaha nitya samasaha. So you will have to give a vigraha vakya which indicates the meaning of the avyaya, and that meaning of the avyaya is pradhana in avyayi bhava samasa. Okay. Avyayi bhava samase pariksha drishtya mukhyataya gnyatavyaha amshaha yeshaha kaha arthaha kasmin arthe kasya avyayasya samasaha bhavati. So we will see six common avyayas which form avyayi bhava samasas. This is not an exhaustive list. This is a very basic understanding of avyayi bhava. Itopi bahushu artheshu avyayi bhava samasaha bhavati. Kintu samanya arthaha tatra kani avyayani iti idanim pashyamaha. Upa iti avyayam samīpārthe bhavati. Krishnasya samīpam upa krishnam. Gramasya samīpam upa gramam. Upa iti avyayam samīpārtham bodhayati. So near Krishna, near the village ityarthaha. Anu iti avyayam arthadvaye bhavati. Ekam tu paschat, after ityarthe. Like we say anugachati, anuvadati. Anu means to follow somebody. After ityarthaha. Yogyam, deserving ityarthaha api asti. Udaharanam pashyamaha. Ramasya paschat. Anuramam. Anuramam bharataha jataha. Bharata was born after Rama. Immediately following Rama ityarthaha. Tatra paschat ityarthaha. Rupasya yogyam anurupam. So that which deserves that rupa. Anurupa by itself we use it to mean befitting. It means anurupaha, anurupam. Varaha vadvaha anurupam asti. Means the bridegroom is deserves the rupa of the vadhu ityarthaha. So anurupam evam eva anugunam gunasya yogyam anugunam evam paschat yogya iti arthadvaye anu iti avyayam bhavati. Adhi iti avyayam saptamyarthe bhavati. It indicates the meaning of in. Adhikaranam iti uchyate. Saptami vibhaktehe yaha arthaha, saeva arthaha adhi ityanena bodhyate. Adhihari ityukte harau in hari ityarthaha. Rajye ityasya adhirajyam in the kingdom in hari ityarthaha. सप्तमी विभक्तेः अर्थः एव अधि इति अव्ययेन बोध्यते. निर् इति अव्ययम् अभावं बोधयति. सो एब्सेंस ऑफ समथिंग इज इंडिकेटेड बाय निर् इति. जनानाम् अभावः, एब्सेंस ऑफ पीपल, निर्जनम्. मशकानाम् अभावः, निर्मशकम्. अभावार्थः निर् इति अव्ययेन बोध्यते. यथा इति अव्ययम् अनतिक्रमः, नॉट गोइंग बियॉन्ड. समयम् अनतिक्रम्य यथा समयम्. सर्वे यथा समयम् आगच्छन्तु मीन्स डोंट डिले, कम विदिन द टाइम विदाउट क्रॉसिंग द टाइम. शक्तिम् अनतिक्रम्य यथा शक्ति. यथा मीन्स स्टेइंग विदिन दट, नॉट गोइंग बियॉन्ड इत्यर्थः. स एव अनतिक्रमः. अतिक्रमः इज क्रॉसिंग, न अतिक्रमः अनतिक्रमः. विग्रहवाक्ये अपि अनतिक्रम्य इति उच्यते. फॉर अव्ययी भाव वेरी इंपॉर्टेंट, जस्ट रिकग्नाइज द पैटर्न ऑफ विग्रहवाक्य. सो इफ यू सी दट अव्यय, हाउ शुड यू राइट द विग्रह. इफ यू सी द विग्रह, व्हाट इज द अव्यय यू शुड इंक्लूड. तावदेव ज्ञातव्यम् अस्मिन् स्तरे. प्रति इति अव्ययम् वीप्सा. वीप्सा मीन्स रिपीटिशन. यथा दिनं दिनं प्रति, प्रतिदिनं. सो एव्री डे. सो टुडे, टुमारो, डे आफ्टर, ईच डे इत्यर्थे प्रतिदिनं. सो समथिंग इज रिपीटेड एव्री डे. वृक्षं वृक्षं प्रति, प्रतिवृक्षं. प्रतिवृक्षं सिंचति, वाटर्स ईच एंड एव्री ट्री. प्रतिदिनं पठति, स्टडीज एव्री डे. अर्थः तु ज्ञायते. एते षट् अव्ययानि, तेषाम् अर्थाः च ज्ञातव्यम्. ओके, सो दीज आर द मोस्ट इम्पोर्टेंट अव्ययस्. देर इज वन मोर, द लास्ट पॉइंट टू बी नोन अबाउट अव्ययी भाव. हाउ डू यू राइट द समस्त पद? ओके, सो तत्र आई जस्ट शो द पैटर्न. सो यदि अकारांतः आकारांतः वा शब्दः. ओके, सो द उत्तरपद, आई एम टॉकिंग अबाउट द उत्तरपद. इफ द उत्तरपद इज अकारांत और आकारांत, समस्त पदम अम इत्यंतम भवति. इट इज एन अव्यय, सो यू टू वरी अबाउट ओनली वन फॉर्म. ओके, सो यदि अकारांतः आकारांतः वा शब्दः, तदा समस्त पदे अम इति भवति. कृष्णस्य समीपम् उपकृष्णम्, ग्रामस्य समीपम् उपग्रामम्, शालायाः समीपम् उपशालम्. इट डज नॉट मैटर विच लिंग, डज नॉट मैटर विच वचन, वॉट एवर इट इज, योर फाइनल फॉर्म इज ओनली वन. ओके, एंड दट whether it is pullinga, strilinga or napumsakalinga, you will hear that am. Etani sarvani avyayani. So shalayaha samipam upashalam, vidyalayasya samipam upavidyalayam, karyalayasya samipam upakaryalayam. So yadi uttarapadam akarantam akarantam va bhavati, tarhi am iti ante shruyate. If there is any other swara at the end, okay, it just becomes hrasva. You do not hear any visarga or makara or anything, just the pratipadika with hrasva. So if it is nadi, it becomes nadi. If it is vadhu, it becomes vadhu. Hrasvaha bhavati tathaiva bhavati, that itself is the avyaya. Upa nadi, nadyaha samipam उपनदी, धेन्वाह समीपम उपधेनु, वध्वाह समीपम उपवधु, मातुहु समीपम उपमात्र. सो इट इज जस्ट द प्रातिपदिक. इफ इट इज दीर्घ, इट बिकम्स ह्रस्व. ऑल्सो इफ यू हैव ओ और औ, गोह समीपम, You have upa go. How do you shorten the go? Harasvaha nasti okarasya. Samskrite nasti. Tada ukaraha bhavati. Upagu. Goho samipam upagu. Navaha samipam. If you have nau. Nau means a boat. So navaha samipam upanu. You had upanau. When you do the harasva for o or au, you get u. एवं यदि अन्यः कोऽपि स्वरः अस्ति तदा ह्रस्वः भवति. यू जस्ट डू द ह्रस्व एंड कीप इट एज इट इज. व्यञ्जनान्तः शब्दः भवति चेत् तत्र विशेष नियमाः सन्ति, किन्तु बाहुल्येन तत्रापि अम् इत्येव भवति. देर आर सम स्पेशल रूल्स, बट इवन देर इन मेजॉरिटी ऑफ द केसेस यू विल स्टिल हियर द अम. For example, rajyaha samipam uparajam, suhrudaha samipam upasuhrut am upasuhrudam, vanijaha samipam upavanijam, himavataha samipam upahimavatam. All these are vyanjanantas. Rajan, suhrud, vanij, himavat, sharad. You just take the pratipadika and add am. Okay. So in Rajan, of course, you have to remove the nakara and then add the am. So most of the avyayi bhava samasas end in am, except if it is other swara, you hear the harasva. Okay. Irani kinchir abhyasam kurmaha. Vigraha vakyam vaktavyam avyayi bhavasya. Hastam unnayantu kripaya. सुधा भगिनी उपग्रामम्.
उपग्रामम् ग्रामस्य समीपम्.
ग्रामस्य समीपम् उपग्रामम्. अधिनदी महादेवन महोदय.
नद्याः
सप्तमी. Adhi, it is saptamyarthe. So you just have to give the saptamyanta.
Nadav?
Nadi, strilingam. Nadyaha, nadyoho, nadinam.
Nadyav.
Nadyam.
Nadyam.
Nadyam. Iti adhinadi. Adhinadi just means in the river. It is just a different way of expressing it. Okay. Pratyekam. Rao Mohanaya.
Shruyate va?
Shruyate.
Ekam, ekam, pratyekam.
Ekam, ekam, prati. प्रत्येकम्. प्रति इत्यपि विग्रहवाक्ये उपयुज्यते. इट्स अ स्पेशल थिंग. सो एकमेकम् प्रति प्रत्येकम्. ईच एंड एवरीबडी इत्यर्थः. अनुमात्र प्रिया भगिनी.
अनुमात्र मातुः पश्चात्.
मातुः पश्चात् अनुमात्र. सम्यक्. निर्विघ्नम् उमा भगिनी.
तस्य अभावः.
विघ्नस्य अभावः अथवा विघ्नानाम् अभावः. निर्विघ्नम्. सम्यक्. यथामति निर्मला भगिनी.
मति अनतिक्रम्य अनतिक्रम्य यथामति.
मतिम् अनतिक्रम्य
यथामति.
सम्यक्. अग्रे समस्तपदं वक्तव्यम्. इच्छाम् अनतिक्रम्य. डि महादेवन् महोदय.
कक्षाम् अनतिक्रम्य यथा इच्छा
यथा
यथा इच्छा
इच्छा संधि
इच्छा इच्छा
संधि
यथा
प्लस इच्छम
यथा यथा इच्छम ताच्छम
यथेच्छम गुणसंधि यथा प्लस इच्छम यथेच्छम सो यथेच्छम इज एज पर डिजायर यावद इच्छ्यते तावत इत्यर्थः सीतायाः पश्चात्
अनुसीतम्
आकारान्तः अथवा आकारान्तश्चेत् अम् इति भवति अनुसीतम् सीतायाः पश्चात् अनुसीतम् गाम गाम प्रति
प्रति गाम
न प्रति प्रातिपदिकं किम्
गो
गो प्रति गो ह्रस्वः क्रियते चेत्
प्रतिगु
प्रतिगु सम्यक् प्रतिगु प्रतिगु घासं ददाति हि फीड्स् ईच् कौ इत्यर्थः स प्रतिगु आत्मनि अत्यन्तं प्रसिद्धः शब्दः राधा भगिनि राधा भगिनी यू हैव टू अनम्यूट योरसेल्फ आत्मनि
आत्मनि आत्मनि आई एम नॉट श्योर
चिंता नास्ति अन्ये केपि can say it's a very famous word lata magin
adhyatma
adhyatmam samyak adhyatmam is derived from this atmani that which is within oneself is adhyatmam adhi atman so it becomes adhyatmam atmani iti adhyatmam girehe samipam अन्ये केपि राजलक्ष्मी
उपगिरि
उपगिरि गिरेः समीपम् उपगिरि सम्यक् अन्तिमं भयस्य अभावः नीला भगिनि You have to unmute yourself.
Nirbhayaha.
Nirbha?
Nirbhayam.
Nirbhayam. Samyak. Bhayasya bhavaha nirbhayam. So, samanyataha am iti bhavati. Anyaswarantaha chet hraswaha iti niyamaha. So, शीघ्रं संक्षेपं पश्यामः सो जस्ट् रिकलेक्ट् क्विक्ली वाट् वी लर्न्ट् अबौट् अव्ययी भाव सो अव्ययस्य सुबन्तेन समासः सामान्यतः समस्तपदम् अव्ययं भवति अव्ययी भावसमासे पूर्वपदार्थस्य अव्ययार्थस्य प्राधान्यं भवति अयं नित्यसमासः अतः विग्रहवाक्ये अन्येन पदेन तस्य अर्थः अव्ययस्य अर्थः वक्तव्यः भवति कानि मुख्यानि अव्ययानि समीपार्थे उप पश्चादर्थे अनु योग्यार्थे अपि अनु इति भवति सप्तम्यर्थे अधि भवति वीप्सार्थे रिपीटिशन् इत्यर्थे प्रति इति भवति अनतिक्रमार्थे यथा इति भवति अभावार्थे निर् इति भवति. एतानि षट् अव्ययानि मुख्यतया भवन्ति. रूपसिद्धिः कथं भवति इत्यपि ज्ञातवन्तः. यदि अकारान्त आकारान्त शब्दः भवति तत्र अम् इति भवति. व्यञ्जनान्तानामपि सामान्यतः अम् इति भवति. अन्य स्वरान्तशब्दाः सन्ति चेत् ह्रस्व स्वरः भवति, तथैव प्रातिपदिकरूपेण तिष्ठति पदम् इति. मङ्गलं कृत्वा प्रश्नानाम् उत्तरं दास्यामि. अग्रिमः वर्गः श्वः रघुवंशस्य. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ, मम पाहि गुरो. प्रश्नाः सन्ति चेत् हस्तमुन्नयन्तु अथवा उट्टङ्क्य प्रेषयन्तु. राव महोदय, प्रश्नः अस्ति वा?
श्रूयते वा?
हा श्रूयते.
निर् प्लस् भयं निर्भयं. यदि अहम् अभयं वक्तुं इच्छति चेत्
भयम् अभयम्.
So, that is also
अभावः. नो, दट् इस् नाट् अव्ययी भाव. भयस्य अभावः निर्भयम् इति अव्ययीभावसमासः. न भयम् अभयम् इति नञ् तत्पुरुषसमासः.
सो
द डिफरेन्स् देर् इस् इन् द प्राधान्य. अव्ययीभावसमासे अभावस्य प्राधान्यं, तत्र तत्पुरुषसमासे भयस्य प्राधान्यं. देर् इस् अ minute difference in this case. You can also have a bahuvrihi. Nasti bhayam yasya saha abhayah. Okay, so tatra you can have similar compounds in all three. So it depends purely on the meaning. Okay, why is nitya samasa called nitya samasa? Punaha vadatu. Nitya samasaha ityukte समानैः पदैः तस्मिन्नेव अर्थे विग्रहस्य समासस्य च प्रयोगः न भवति. ऐ मीन् दट् इस् द सिम्प्लेस्ट् वे आफ् सीयिङ्ग् इट्. से फार् एक्साम्पल् यु केन् से सीतायाः पतिः गच्छति और् सीतापतिः गच्छति. बट् यु केनाट् से उपकृष्णं गौः अस्ति, कृष्णस्य उप गौः अस्ति. सो तयोरेव पदयोः समस्ततया विग्रहतया वा उभयथापि प्रयोगः न भवति. द सेम् वर्ड्स् यूजुवलि इन् 95% आफ् समासस् यु केन् यूस् द सेम् वर्ड्स् एज़् अ समस्तपद आर् यु केन् कीप् देम् सेपरेट् डिपेण्डिङ्ग् आन् विवक्ष. समास इस् प्योर्ली डिपेण्डेण्ट् आन् युर् विश्. इफ् यु वाण्ट् टु से सीतापतिः गच्छति यु केन्, अदर्वैस् यु केन् से सीतायाः पतिः गच्छति. मेक्स् नो डिफरेन्स्. Okay, but there are some cases where you cannot use the components of the samasa separately. Like you cannot say krishnasya upa tishthami, you can only say upakrishnam tishthami. If you want to make a vakya, you have to use a different word, krishnasya samipam tishthami. Similarly, kumbhakarah gachyati, you cannot say kumbhasya karah gachyati. यः कुम्भं करोति सः गच्छति. यु हेव् टु यूस् अ रिप्लेस्मेण्ट् वर्ड्. सच् समासस् आर् काल्ड् नित्य समासस्. ओके, केन् यु गिव् वन् मोर् एक्साम्पल् फार् अधिपूर्वक अव्ययीभावसमास? देर् आर् अ लाट् आफ् अधिपूर्वक वैभव. एक्चुअली दट् ದ ಅಕ್ಷರ ಬ್ರಹ್ಮಯೋಗ ದ ಏತ್ ಚಾಪ್ಟರ್ ಆಫ್ ಭಗವದ್ಗೀತಾ ಇಟ್ ಸ್ಟಾರ್ಟ್ಸ್ ವಿತ್ ದ ಹೋಲ್ ಸೆಟ್ ಆಫ್ ದೋಸ್ ವರ್ಡ್ಸ್ ವಿತ್ ಅಧಿ ಕಿಂ ತದ್ ಬ್ರಹ್ಮ ಕಿಂ ಅಧ್ಯಾತ್ಮಂ ಕಿಂ ಕರ್ಮ ಪುರುಷೋತ್ತಮ ಅಧಿಭೂತಂಚ ಕಿಂ ಪ್ರೋಕ್ತಂ ಅಧಿದೈವಂ ಕಿಂ ಉಚ್ಯತೆ ಓಕೆ ಆಲ್ ದೋಸ್ ಆರ್ ವಿತ್ ಅಧಿ ಅಧಿ ಇಸ್ ಯೂಸ್ಡ್ ಎನಿವೇರ್ ಅಸ್ ಇನ್ ಇಟ್ಸ್ ಜಸ್ಟ್ ಅ ಸಪ್ತಮಿ ಅರ್ಥ ಇಟ್ ಇಸ್ ಅ ಸ್ಪೆಷಲ್ ವೇ ಆಫ್ ರೆಪ್ರೆಸೆಂಟಿಂಗ್ ಇಟ್ ಯು ಕ್ಯಾನ್ ಸೇ ಅಧಿರಾಜ್ಯಂ ನೃಪಃ ರಾಜತೆ ಓಕೆ ಹಿ ಇಸ್ ಶೈನಿಂಗ್ ಇನ್ ದ ಕಿಂಗ್ಡಮ್ ಆರ್ ಅಧ್ಯಾಕಾಶಂ ಚಂದ್ರ ನಕ್ಷತ್ರಾಣಿ ಚ ಶೋಭಂತೆ ಎಟ್ಸೆಟ್ರಾ ಓಕೆ ಓಕೆ ಸೊ ಅಧಿಕೃತ ಇತ್ಯಸ್ಯ ವಿಗ್ರಹ ದೇರ್ ಇಟ್ ಇಸ್ ಜಸ್ಟ್ ಅಧಿ ಇಸ್ ಅನ್ ಉಪಸರ್ಗ ಫಾರ್ ಕೃ ಸೊ ಅಧಿಕರೋತಿ ಇಸ್ ಟು ಬಿ ಇನ್ ಚಾರ್ಜ್ ಆಫ್ ಸಮಥಿಂಗ್ ಓಕೆ ಸೊ ಇಟ್ ಇಸ್ ಜಸ್ಟ್ ಅನ್ ಉಪಸರ್ಗ ಟು ಕೃ ದೇರ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಅ ಅವ್ಯಯಿ ಭಾವ ಸಮಾಸ ದೇರ್ ಇಸ್ ಒನ್ ಮೋರ್ ಕ್ವೆಶ್ಚನ್ ರಿಗಾರ್ಡಿಂಗ್ ಎಸ್ಟರ್ಡೇಸ್ ದಟ್ ಗೋಷ್ಪದೀಕೃತ ವಾರಾಶಿಂ So we'll see that next, but it just means Goshpada. Goshpada means the hoof of a cow. Okay. Gohpada, Goshpada. Okay. So there it is means it's very small. A Goshpada, how big is the hoof of a cow? Goshpadikrita Varashim. So Anjaneya, he made such a big ocean seem like a Goshpada. So Goshpadikrita Varashi. Varashi is an ocean. So an ocean was made as if it is the as small as a cow's foot. Iti arthaha. Okay. So I'll give the answers in the answer sheet. You can just check and let me know if anything is there. Okay. So we'll stop here for today. Shwaha. ಪಶ್ಯಾಮಃ